सदा सत्स्वरूपं चिदानन्दकन्दं जगत्सम्भवस्थानसंहारहेतुं स्वभक्ते चयामानुषं दर्शयन्तं नमामीश्वरं सद्गुरुं साईनाथं भवद्भान्तविध्वंसमार्तण्डमिड्यं मनोवावतीतं मुनिर्ध्यानगम्यं जगद्व्यापकं निर्मलं निर्गुणं त्वां नमामीश्वरं सद्गुरुं साईनाथं भवाम्बोधिमग्नार्जितानां जनानां स्वपादाश्रितानां स्वभक्तिप्रियाणां समुद्धारणार्थं कलौ सम्भवन्तं नमामीश्वरं सद्गुरुं साईनाथं सदा निम्बवृक्षस्य मूलादिवासात् सुदासाविणं तिक्तमप्यप्रियं तं तरुं कल्पवृक्षाधिकं साधयन्तं नमामीश्वरं सद्गुरुं साईनाथं सदा कल्पवृक्षस्य तस्याधिमूले भवेद्भावबुद्ध्या सपर्यादिसेवां नृणा कुर्वतां मुक्तिमुक्तिप्रदं तं नमामीश्वरं सद्गुरुं साईनाथं अनेकाशु तादर्गलीलाविलासै समाविष्कृतेशानभास्वत्प्रभावम् अहं भावहीनं प्रसन्नात्मभावं नमामीश्वरं सद्गुरुं साईनाथं सतां विश्वमाराममेवाभिरामं सदा सज्जनैः संस्तुतं सन्नमद्भि जनामोददं भक्तभद्रप्रदं तं नमामीश्वरं सद्गुरुं साईनाथं अजन्माद्यमेकं परं ब्रह्म साक्षात् स्वयं सम्भवं राममेवावतीर्णं भवद्दर्शनात् सम्पुनीता प्रभोऽहं नमामीश्वरं सद्गुरुं साईनाथं।